इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी ह्यः नवदिल्ल्यां स्वनिवासे 20-26 इत्यस्य राष्ट्रमण्डल क्रीडायाः पदक विजेतृभिः सह मेलनं कृतवान्। संवादसमये पदक विजेतारः प्रधानमन्त्रिणा सह क्रीडायाः स्वानुभवान् निवेदितवन्तः। सामाजिक संचार पटले प्रकाशिते एकस्मिन् सन्देशे श्रीमोदी अवदत् यत् तेषाम् एकैकः अपि असाधारण प्रदर्शनेन राष्ट्रं गौरवान्वितवान् तथा तेषां सफलता बहून् यूनः प्रेरयिष्यति। श्रीमोदी एकं दृश्यश्रव्य सन्देशम् अपि प्रकाशितवान्। अथ अवदत् यत् ये क्रीडकाः भविष्ये क्रीडासु भागं ग्रहीष्यन्ति ते प्रगतिं करिष्यन्ति। असौ नागरिकान् भारतस्य सदैव उत्साहवर्धनं कर्तुम् आहूतवान्।
जो खेलेगा वो खिलेगा। ऑलवेज चीयर फॉर भारत। भारत माता की जय। भारत माता की जय। भारत माता की जय।
अवसरेस्मिन् युवकार्याणां क्रीडामन्त्री मनसुख मांडविया तथा युवकार्य खेल राज्यमन्त्री रक्षा निखिल खडसे च उपस्थिते आस्ताम्। देशस्य सर्वेषु भागेषु हर घर तिरंगा इत्यभियानं देशभक्तेः राष्ट्रैकतायाः भारतस्य च समृद्ध सांस्कृतिक परम्परायाः प्रोत्साहनाय आयोज्यते। अभियानमिदं 22-2000 वर्षे प्रारब्धस्य हर घर तिरंगा इत्युपक्रमस्य पञ्चवर्षम् अस्ति। अनेन अभियानेन नागरिकाः राष्ट्रध्वजं प्रस्थापयितुं तथा देशभक्तेः राष्ट्रैकतायाश्च भावनां प्रकटयिष्यन्तीषु विविधासु गतिविधिषु भागं ग्रहीतुं प्रोत्साह्यन्ते। अस्मिन् वर्षे अभियानं विशेषत्वेन महत्वपूर्णमस्ति यतः इदं भारतस्य राष्ट्रगीतस्य वन्दे मातरम् इत्यस्य सार्धैकशततम वर्षपूर्त्या सह आयोज्यते। अनेन राष्ट्रध्वजस्य राष्ट्रगीतस्य च विशिष्टः समागमः भवति। प्रधानमन्त्री नरेन्द्र मोदी नागरिकान् अभियाने सक्रियतया भागं ग्रहीतुम् अथ विकसित भारतस्य निर्माणे स्वप्रतिबद्धतां पुनर्नवीकर्तुं च आहूतवान्। दिल्ली मेट्रो रेल निगमेन स्वातन्त्र्य भावनायाः उत्सवस्य भागरूपेण पीतवर्णमार्गे हर घर तिरंगा इति विषयवस्तुना सुसज्जिता विशेषा मेट्रो रेल यानसेवा समारब्धा। सामाजिक संचारपटले प्रकाशिते एकस्मिन् सन्देशे डीएमआरसी इत्यनेन कथितं यत् भारतस्य 80तमे स्वातन्त्र्य दिवसोपलक्ष्ये आयोज्यमानानां सप्ताहव्यापिनां कार्यक्रमाणां भागरूपेण एषा विशेषा मेट्रो रेल सेवा प्रारब्धा। ओडिशा राज्ये पुनः प्रचण्ड वृष्टेः अनन्तरं राज्यस्य अनेकेषु भागेषु नदीनां वर्धमानः स्तरः नूतनः जलाप्लावन प्रकोपः जनयति। बैतरणी नदी अस्य प्रावृट्कालस्य तृतीये जलाप्लावन प्रकोपे प्रविष्टवती अस्ति। एकया नूतन न्यूनचाप व्यवस्थया सम्पूर्णे राज्ये अतिवृष्टिः अभवत्। अधिकारिणः जलाप्लावन प्रवण क्षेत्रेषु नदीस्तरस्य निरीक्षणं निकटतया कुर्वन्तः सन्ति। आवश्यकान् समाह्वानान् निवारकोपायाञ्च कुर्वन्तः सन्ति। भारतीयः भारोत्तोलकः महाराजन अरुमुगा पाण्डियनः उज्बेकिस्तान ताशकंद नगरे एशियन जूनियर वेटलिफ्टिंग चैंपियनशिप इत्यस्याम स्पर्धायाम पुरुषाणां 65 किलोग्राम मिते भारवर्गे रजत पदकं प्राप्तवान् इति वार्ताः।